राम गीता जी का पाठ 15वां अध्याय प्रारंभ से श्लोक 10 तक। राम
वसुदेव सुसंदेव सजानोरमर्दनम देवकी करनानैवम कृष्णं वन्दे जगद्गुरुम् अथ पञ्चदशोऽध्याय ूर्धमूलमधशाखोर्छन्द्राहुरव्ययम् खन्दांसि यस्य पर्णानि यस्तं वेदसवेदवे अधस्तूर्धम् सुषाद गुण विषयूलानुसंतुतानि कर्मानु बंधी मनुष्यलोके न रूपमस्ये कलव्यदे सन्प्रतिष्ठस्वत्थमेनम् तु विरूढमूल मसङ्गशेन गृहे न शेत्वा ततः पदम् तत्परिमार्जितव्यम् यस्मङ्गकालमिवर्तन्तिभूय तमेव चार्यम् पुरुषम् प्रपद्ये यतः प्रवेशे प्रसिता पुरन्ति निर्माणमोहाचितसङ्गलोक नाशरथे न शशाङ्को न पारको यद्वा न निवसन्ति तद्धाम परमं मनम् नमैवांशो जीवलोके जीवभूत सनातन मनसस्थानन्द्रियाणि प्रकृतिष्ठानि कर्षति शरीरं यद्वाप्नोति यस्यात्युत्क्रामतीश्वर विहेत्वैतानि संयाति श्रोत्रम् चक्षुष्पर्शनम् च रसनम् ध्यानमेव च अभीष्टाय मनस्ताय कृष्णानुपसेवते श्रोत्कामन्तम् सुतम् वापि सञ्जानम् विमूढानानुपश्यन्ति पश्यन्ति ज्ञानच सुख योत्कामन्तं स्थितं वापि सञ्जानं वा गुणान्वितम् विमूढानानुपश्यन्ति पश्यन्ति ज्ञानच सुख। वसुदेव सुतं देवं पंचजानुरमर्दनं देवकी करनानं कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं
हरि शरणं 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 हरि शरणं